एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेले लोकतान्त्रिक मूल्य मान्यताञ्च आत्मसात कृत्य सुशासनस्य विकासस्य समृद्धेश्च यात्रायां सम्पूर्ण नेपाल जनै जनप्रतिनिधिभि राजनीतिक दलै राज्य संयन्त्रणश्च एकीभूय अग्रे वर्धनीयम् इति आग्रह कृतोऽस्ति। ह्य सिंहप्रासादवर्तिनी संघीय संसद भवने संघीय संसद द्वयोरपि सदनयोः संयुक्तोपवेशं सम्बोधयन् राष्ट्रपतिः पौडेलः देशे लोकतान्त्रिक गणतन्त्रस्य सुदृढीकरणस्य राष्ट्रिय एकतायाः प्रवर्धनस्य आर्थिक समृद्धेश्च संयुक्त लक्ष्यम् अधिगन्तुं सर्वैः एकताबद्धैर्भूत्वा अग्रे वर्धनीयं भवति इति उक्तवान्। राष्ट्रपतिः पौडेलः संविधान क्रियान्वयनस्य विगत दश वर्षाणाम् अनुभवः महत्वपूर्ण अस्ति, तथापि संविधानस्य मर्मणः भावनायाः जनतायाः इच्छायाश्च अनुरूपं कर्तव्यानि कार्याणि बहूनि अवशिष्टानि सन्ति इति हेतोः सर्वकारेण तेषु विषयेषु ध्यानं दीयते इति विश्वासं प्राकटयत्। जनतया सुशासनस्य उत्तरदायिनः पारदर्शिनश्च सेवाप्रवाहस्य स्वदेशे एव वृत्तिप्राप्तेश्च आकांक्षा कृता अस्ति इति चर्चयन् राष्ट्रपतिः पौडेलः जनतायाः आकांक्षायाः पूरणाय संसदा सर्वकारेण सह गभीरेण भाव्यम् इत्युक्तवान् अस्ति। भ्रष्टाचार नियन्त्रणाय सुशासन प्रवर्धनाय च युवभि विहितस्य आन्दोलनस्य अनन्तरं तात्कालिक्याः प्रतिनिधिसभायाः विघटनं विधाय नवीन जनादेशस्य कृते निर्णयो विहितो आसीदिति संस्मरन् राष्ट्रपतिः पौडेलः निश्चित समयावधावेव निर्वाचनं सफलीकर्तुं राज्य संयन्त्रं सांविधानिक मार्गे आनेतुं च महत्वपूर्णां भूमिकां निर्व्यूढवते निवर्तमान सर्वकाराय धन्यवाद वादन च प्रायच्छत्। नवीन संसद अधिवेशनस्य आह्वानानन्तरं राष्ट्रप्रमुखेण संयुक्तोपवेशे सम्बोधनं कर्तव्यमेवेति सांविधानिक प्रावधानानुसारेण राष्ट्रपतिना पौडेलेन ह्य संघीय संसद द्वयोरपि सदनयोः संयुक्तोपवेशे सम्बोधनं विहितमस्ति। अत्रान्तरे राष्ट्रपतिना पौडेलेन मन्त्रिपरिषद परामर्शेन गतरात्रौ द्वादशवादनात् क्रियान्वयनत्वेन संघीय संसद अधिवेशनस्य अन्त्यं विहितमस्ति। प्रतिनिधिसभायाः उपसभामुखपदे श्रम संस्कृति दलस्य सांसदः रूबी कुमारी ठाकुरः निर्वाचिता अस्ति। प्रतिनिधिसभायाः ह्य उपविष्टे उपवेशे सम्भूतायाः निर्वाचन प्रक्रियायाः माध्यमेन ठाकुरः उपसभामुखपदे निर्वाचिता अस्ति। प्रतिनिधिसभायाः सभामुखेन डोलप्रसाद अर्यालेन ठाकुरः उपसभामुखपदे अत्यधिकेन बहुमतेन निर्वाचिता अस्ति इति उद्घुष्टमासीत्। ठाकुर इत्यनया संसदि उपस्थितेषु षट्पञ्चाशदुत्तर द्विशत संख्याते सदस्येषु ऊनत्रिंशदुत्तर द्विशत सांसदानां मतानि समुपलब्धानि सन्ति। श्रम संस्कृति दलस्य पक्षतः प्रत्याशिनी भूतायै ठाकुर इत्यस्यै श्रम संस्कृति दलेन सहैव रासोपा दलस्य नेपाली कांग्रेस दलस्य नेकपा दलस्य च समर्थनमासीत्। निर्वाचन प्रक्रियायां नेकपा एमाले दलं तटस्थमासीत्। उपसभामुखपदस्य निर्वाचने अपर प्रत्याशिनी राप्रपा दलस्य सांसद सरस्वती लामा पञ्चमतानि एव लब्धवती आसीत्। उपसभामुखस्य निर्वाचने श्रम संस्कृति दलस्य ठाकुरः राप्रपा दलस्य लामा च प्रत्याशिन्यौ आस्ताम्। पञ्चविंशति वर्षीया ठाकुरः नेपालस्य संसदीय इतिहासे एव सर्वापेक्षया न्यून वयस्का उपसभामुख सम्भूता वर्तते। अत्रैव प्रतिनिधिसभायाः नवनिर्वाचितया उपसभामुखेन रूबी कुमारी ठाकुर इत्यनया ह्य एव सभामुखस्य डोलप्रसाद अर्यालस्य समक्षं पदगोपनीयतयोः शपथ गृहीतोऽस्ति। ह्य शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते एकस्मिन् समारोहे राष्ट्रपतेः रामचन्द्र पौडेलस्य समुपस्थितौ सभामुख अर्यालः नवनिर्वाचिताम् उपसभामुखं ठाकुर इति मां पदगोपनीय तयोः शपथम् अग्राहयत्। समारोहे उपराष्ट्रपतिः प्रधानमन्त्री राष्ट्रसभायाः अध्यक्ष प्रभृतयः विशिष्टजनाः समुपस्थिताः आसन्। प्रधानमन्त्रिणः बालेन्द्र शाहस्य परामर्शेन राष्ट्रपतिना रामचन्द्र पौडेलेन उद्योग वाणिज्यापूर्ति मन्त्रीपदे गौरी कुमारी यादवः श्रमवृत्ति सामाजिक सुरक्षा मन्त्रीपदे रामजी यादवश्च नियुक्तोऽस्ति। नवनियुक्तौ मन्त्रिणौ ह्य एव शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते समारोहे शपथं गृहीतवन्तौ। राष्ट्रिय सभायाः स्थनोपवेशे प्रधानमन्त्रिणा बालेन्द्र शाहेन ह्यः राष्ट्रपतिना रामचन्द्र पौडेलेन संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशस्य विहितस्य सम्बोधनस्य पत्रं प्रस्तुतमासीत्। राष्ट्रिय सभायाः अध्यक्षः नारायण प्रसाद दाहालः राष्ट्रपतितः संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशस्य विहितस्य सम्बोधनस्य कृते धन्यवादस्य प्रस्तावं सभातः पारिति कृतवान्। उपवेशे राष्ट्रिय सभायाः अध्यक्षः दाहालः राष्ट्रपतेः कार्यालयात् प्राप्तस्य मन्त्रिपरिषदः कार्यभारस्य परिवर्तनस्य पत्रस्य सूचनायाः विषयम् अज्ञापयत्। आगामिनः शैक्षिक सत्रस्य पठन पाठनं वैशाख मासस्य एकविंशात् दिवसात् औपचारिक रूपेण प्रारप्स्यते। सानुठिमे वर्तिना शिक्षा मानव स्रोत विकास केन्द्रेण नवीनस्य शैक्षिक सत्रस्य अन्तर्गतं विद्यालय प्रवेशाभियानम् आगामिनः वैशाख मासस्य पञ्चदश दिवसात् पठन पाठनं च एकविंशात् दिवसात् प्रारप्स्यते इति सूचनां प्रकाश्य ज्ञापितं वर्तते। शिक्षा विज्ञान प्रविधि मन्त्रालयस्य निर्देशनस्य मन्त्रिपरिषदः निर्णयस्य च अनुसारेण आगामिनः त्र्यशीत्युत्तर द्विसहस्रतम विक्रमवर्षस्य शैक्षिक सत्रं वैशाख मासस्य पञ्चदश दिवसात् प्रारब्धुं निर्णीतमासीत्। सहैव चैत्र मासस्य त्रयोविंशात् दिवसात् सर्वकारीय कार्यालयेषु शैक्षिक संस्थानेषु च शनिश्चरवासरे रविवासरे च सार्वजनिकावकाशस्य प्रदानस्य व्यवस्था क्रियान्विता अस्ति। अस्या एव व्यवस्थायाः अनुसारेण शैक्षिक गतिविधिं सञ्चालयितुं विद्यालयाः निर्दिष्टाः वर्तन्ते। उपराष्ट्रपतिः रामसाहेब प्रसाद यादवः कथयति स्वास्थ्यम् अनुसन्धानं च न केवलं शैक्षिकाभ्यासोऽस्ति अपितु राष्ट्रिय दायित्वस्य रूपेण ग्रहणीयो भवति। नेपाल स्वास्थ्य अनुसन्धान परिषदा शुक्रवासरे काष्ठमण्डपे आयोजितस्य नेपाले स्वास्थ्य जनसंख्या वैज्ञानिकानां द्वादश राष्ट्रिय शिखर सम्मेलनस्य उद्घाटन समारोहं सम्बोधयन् उपराष्ट्रपतिः यादवः प्रमाणे आधृतायाः नीति निर्माणस्य सुदृढीकरणस्य कृते समेषां पक्षाणां सहकार्यम् आवश्यकमस्ति इति उदैरयत्। अष्टसु दिनेषु नवरात्राणि च यावत् समायोज्यमानायाः भक्तपुरस्य प्रसिद्धा बिस्केट यात्रा ह्यः सायं प्रारब्धं वर्तते। भक्तपुरस्य टौमणि क्षेत्रस्थितस्य पञ्चतलयुतस्य भैरवनाथ मन्दिरस्य परिसरे निर्मितस्य त्रयतलयुत प्यागोडा शैल्याः भैरवनाथस्य रथम् आकृष्य यात्रायाः प्रारम्भणं भवति। भैरवनाथस्य पूजायाः प्रारम्भेण सहैव आरप्स्यमानायां यात्रायां दिवास्थानीय जनानां पूजायाः समाप्तेः पश्चात् सर्वकारीय पूजायाः सम्पादनस्य पश्चात् रथम् आकृष्य यात्रेयं प्रारब्धा वर्तते। ऐसैक विकास कोषागारेण आगामिनि ख्रीष्टवर्षे नेपालस्य आर्थिक वृद्धे अनुपातः प्रतिशतं 0.77 द्वयोः अंकयोः सीमिता भविष्यति इति प्रक्षेपणं सार्वजनिकृतं वर्तते। अनुपातोऽयं पूर्वतनवर्षात् न्यूनोऽस्ति। पूर्वतनवर्षे 0.74 अंकः दृष्टमस्ति। कोषागारस्य नेपालस्य देशीय निर्देशकस्य आर्नो कोसुवा इत्यस्य अनुसारेण राजनीतिका अनिश्चिततायाः गतभाद्रस्य जनजीवा आन्दोलनस्य मध्यपूर्व क्षेत्रे जायमानस्य द्वन्द्वस्य कारणेन आर्थिक वृद्धिः मन्दायमाना अस्ति इति अवोचत्।